अधिष्ठान तव स्वादिष्टानि हुतवहम् अधिष्ठाय निरतम् तमीडे संवर्तम् जननी महतीं तां च समयाम् यदा लोके लोकान् दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारम् रचयति Oh.